एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सत्तारूढ़ गठबन्धनस्य गतदिने उपविष्टेन उपवेशेन प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन संसदि विचाराधीनस्य नागरिकता विधेयकस्य अग्रे वर्धापनाय प्रस्तुतं प्रस्तावं अग्रे वर्धयितुं निर्णीतं वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टं उपवेशम् अनु संचारकर्मीभिः भाषमाणः सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की उपवेशे प्रधानमन्त्रिणा नागरिकता विधेयकस्य अग्रे वर्धापनात्मक प्रस्ताव प्रस्तुत प्रस्तावसौ कतिचित प्रक्रिया प्रपूर्य अग्रे वर्धिष्यते चेति अज्ञापयत। संचार मंत्री कार्की अवोचत एवं रीत्या अग्रे वर्धिष्यमानेन विधेयकेन पिता नागरिक माता च नागरिक परम अनयो संतते अनागरिक रूपेण संस्थिते समस्या समाधास्यते। संचार मंत्री कार्की उपवेशे शांति प्रक्रिया शीघ्र निष्कर्षे प्रापणस्य विषये विमृष्टमिति अवदत। उपवेशे विधि न्याय संसदीय विषय मन्त्री गोविन्द प्रसाद शर्मा कोइराला शान्ति प्रक्रियायाः सम्बन्धे अद्यावधिकं प्रतिवेदनं प्रस्तौतीति च संचार मन्त्री कार्की ज्ञापितवान्। न्याय परिषदः गतदिने उपविष्टेन उपवेशेन काष्ठमण्डप जनपद न्यायालयस्य न्यायाधीशस्य राजकुमार कोइराला विधस्य विषय अनुसन्धानाय न्याय परिषद सदस्यस्य रामप्रसाद श्रेष्ठस्य संयोजकत्वे त्रिसदस्यीया अनुसन्धान समितिः संगठिता वर्तते। न्यायाधीशस्य कोइरालाविदस्य अधिवक्तु रुद्रपोखरेलस्य च मध्ये सिविल बचत ऋण सहकारी संस्था लिमिटेड संस्थायाः संचालकस्य इच्छाराज तामाङ इत्यस्य न्यासवित्तेन मोचनाय विहितायाः अनुचित वित्तीयालाप संविधायाः श्रव्य सामग्र्याः सत्यतायाः विषये अनुसन्धानाय परिषदा समितिरेषा संघटितेति न्याय परिषदः प्रवक्ता मानबहादुर कार्की अज्ञापयत। अनुसन्धान समितौ न्याय परिषदः सदस्यः श्रेष्ठः संयोजकः पाटनवर्तिनः उच्च न्यायालयस्य कार्यवाहक मुख्य न्यायाधीशः महेश प्रसाद पुडासैनी अपर न्यायाधीश महेश शर्मा पौडेलश्च सदस्यौ स्तः। परिषदः प्रवक्तुः कार्किणः अनुसारेण समित्यै पञ्चचत्वारिंशतो दिनानां कार्य विधि दत्तोस्ति। एतस्याः सहकारी संस्थातः संचयकर्तृणां वित्तस्य अनियमितताया अभियोगे सम्प्रति अनुसन्धान प्रक्रियायै कारावासे विद्यमानेन तामाङ इत्यनेन सहितानां जनानां न्यासवित्तेन मोचनस्य विषये न्यायाधीशस्य कोइरालाविदस्य विधि व्यवसायिनः पोखरेलस्य च मध्ये सम्भूतया वार्तया सहिता श्रव्य सामग्री सार्वजनीभूता वर्तते। नेपाल बार एसोसिएशन संघेन काष्ठमण्डप जनपद न्यायालयस्य न्यायाधीशस्य राजकुमार कोइराला इत्यस्य अधिवक्तु रुद्रप्रसाद पोखरेलस्य च मध्ये विहितायाः श्रव्यवार्तायाः सम्बन्धे संघस्य गभीरं ध्यानाकर्षणं सम्भूतम् अस्तीति ज्ञापितं वर्तते। न्यायाधीशस्य कोइरालाविदस्य अधिवक्तुः पोखरेलस्य च मध्ये सम्भूतस्य अनुचित वित्तीयालापस्य श्रव्य सामग्र्याः वैर्भवनमनु नेपाल बार एसोसिएशन संघेन ह्यो विज्ञप्तिं प्रकाश्य संघस्य गभीरं ध्यानाकर्षणं जातमिति ज्ञापितमस्ति। नेपाल बार एसोसिएशन संघेन नागरिकाणाम् अस्य आस्था न्यासरूपयोः अन्तिम केन्द्रस्य रूपेण विद्यमानायाः न्यायपालिकायाः प्रतिष्ठाभिवृद्धये मुख्य भूमिकां निर्वहद्भिः न्यायाधीशैः कर्मचारिभिः विधिव्यवसायिभिश्च एवंविधानाम् अवांछितानाम् अमर्यादितानाम् अनुचितानां च कार्याणां सम्पादनं निन्दनीयम् अस्तीति विज्ञप्तौ उल्लिखितं वर्तते। नेपालबार संघेन सांविधानिक सर्वोच्चतायै विधेय शासनाय स्वतन्त्रतायै निष्पक्षायै च न्यायपालिकायै च निरन्तरं क्रियाशीलता स्थिति स्मारयता तथ्यम अनुसन्धाय दोषिणो विदेहे परिदौ आनेतुमपि अभियाचितम् वर्तते। राष्ट्रिय सभायाम् एतद् विक्रम वर्षीय विनियोजन विधेयकस्य अन्तर्गतम् शिक्षा विज्ञान प्रविधि उद्योग वाणिज्यापूर्ति संस्कृति पर्यटन नागरिकोड्डयन भौतिक पूर्वाधार यातायात परराष्ट्र पेयजल स्वास्थ्य जनसंख्या मन्त्रालयानाम् विनियोजन शीर्षकाणि आधृत्य विमर्शनम् ह्य सम्पन्नमस्ति। विमर्शनस्य क्रमे सांसदाः प्रतिवर्षम् यथासमयम् पाठ्यपुस्तकानाम् प्रापणाभावस्य समस्या दृश्यमानास्तीत्यतः यथासमयम् अस्याः समस्यायाः समाधानाय बलं देयम् शिक्षायाः सर्वेषु प्राप्तित्वेन व्यवस्थापनं विधेयम् मदरसा शिक्षा राष्ट्रियशिक्षायाः मूलधारे आनेयेति च अयाचन्त। एवमेव ह्यस्तनोपवेशे स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा गत विक्रम वर्षीय कोविड 29 संकट व्यवस्थापन विधेयकम् सभायाम् प्रस्तोत। तत्पूर्वम् उपवेशे उद्योग वाणिज्य पूर्ति मन्त्री दिलेन्द्र प्रसाद बडु अवोचत् शिला तैलीय पदार्थेषु भूतायः मूल्यवृद्धेः कारणेन शिला तैलीय पदार्थानां प्रयोगम् न्यूनीकर्तुम् सर्वकारेण विद्युतः अधिकाधिक प्रयोगे बलप्रदानस्य कार्यक्रमेभ्यः प्राथमिकता प्रदीयमाना वर्तते। मन्त्री बडु पाचन इन्धनस्य विस्थापनाय सर्वकारेण प्रथमचरणे सिंहप्रासादात् प्रारभणाय पूर्वकार्यम् विहितमिति ज्ञापयन् पाचन इन्धनम् व्यावसायिक रूपेण व्यक्तिगत रूपेण च पृथक् पृथक् विभिन्नेष् मापनेष् आपणे आनेतुम् पूर्वकार्यम् विहितम् वर्तते इति असूचयत्। राष्ट्रियसभायाः अपरोपवेशः अद्य दिवा एकवादने पुनर्वसति। प्रतिनिधि सभायाः विधि न्याय मानवाधिकार समितौ यौन हिंसा विरूद्धस्य कतिचित् अधिनियमानाम् एतद् विक्रम वर्षीयम् संशोधन विधेयकम् उद्दण्डनापराधो दण्डन कार्यविधि सम्बद्ध कतिचित् अधिनियमानाम् एतद् विक्रम वर्षीयम् विधेयकञ्च आश्रित्य प्रकरणगतम् विमर्शनम् प्रारब्धम् अस्ति। समिते ह्य सिंहप्रासादे उपविष्टे उपवेशे संशोधनकर्तारः सांसदाः विधेयकस्य प्रतिसूत्रम् विमृष्टवन्तः। उपवेशे सांसदाः बलात्कारस्य घटना एव यौन हिंसाया रूपेण न द्रष्टव्या, बलात्कारस्य घटनायाः दोषिभ्यः आजीवन कारावासनस्य दण्डनस्य व्यवस्था विहिता सत्यपि घटनाः वर्धमानाः सन्तीत्यतः अपराधिभ्यः प्रदीयमानस्य दण्डनस्य स्वरूप परिवर्तनत्वेन विधेयनिर्माणाय च बलम् प्रादुः। सांसदाः यौन हिंसायाः घटनायाम् मिथ्यारूपेण न्यायिक प्रकरणस्य पञ्जीकारकेभ्यो जनेभ्य अपि अपराधे संलग्न जनवत् पूर्ण दण्डनस्य व्यवस्थामपि वैधानिक रूपेणैव कर्तुम् बलम् प्रादुः। कृषि सहकारी प्राकृतिक स्रोत समित्या नेपाले ऊर्जसः सम्भावनायः वर्तमानावस्थायाः समावयस्य च विषयेष् ऊर्जोविज्ञैः सह विमृष्टम् वर्तते। समित्या ह्य सिंहप्रासादे आयोजिते विमर्शने ऊर्जोविज्ञः ऊर्जसो विकासाय मुख्यतः राज्येन जलविद्युदुत्पादनाम् प्राथमिकतायां संस्थापनीयमिति परामृशन्। विमर्शने ऊर्जोविज्ञः रामहरी ढकालः कार्यपत्रम् प्रस्तुवन् अगदत् नेपालस्य ऊर्जसो विकासाय क्षेत्रीय सन्तुलनम् संस्थाप्य सम्भाव्य क्षेत्रे जलविद्युदुत्पादनम् एतस्य पूर्वाधाराणाम् विकासश्च राज्येन प्राथमिकतायां स्थापनीयौ। सांसदः जलाशययुक्ताय जलविद्युदुत्पादनाय बलम् ददतः कार्यम् कुर्वता जनानाम् कृते कुर्वताम् जनानाम् कृते सहज वातावरणम् निर्मातुम् सर्वकारेण अग्रे सरता दर्शनीयेति अवोचन्। इमे सर्वकारेण खोलिकानाम् क्रय विक्रयानुमतिम् प्रदाय उत्पादने ध्यानम् दातुम् न शक्तमिति तर्कयन्तः अन्यैः प्राप्तव्यम् सौविध्यम् नैपालकेभ्य उत्पादकेभ्योऽपि दातव्यमिति धारणाम् उपस्थापयन्। अद्यतः पञ्चवर्षतः द्वादश वर्षेभ्यो न्यूनवयस्काभ्यो बालबालिकाभ्यः कोरोना विरुद्धस्य फाइजर बायो एन्टेक नामकम् टीकाकरणम् आधीयते। अद्यतः आषाढस्य पञ्चदश दिवसम् यावत् सप्तविंशत्याम् जनपदेषु बालबालिकाभ्यः टीकाकरणस्य प्रथम मात्रा अस्यैव समूहस्य बालबालिकाभ्यः श्रावणस्य द्वितीय दिवसात् अष्टमम् दिवसम् यावत् टीकाकरणस्य द्वितीया मात्रा च आधास्येते।